अस्मद्गुरुभ्यो नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे। स्वतःसिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं सुधासदृचीभिः द्युतिभिरवदात त्रिभुवनम्। अनन्तैस्त्रय्यन्तैः अनुविहितहेशाहलहलम् हताशेषावद्यं हयवदनमीडीमहि महः। समाहारस्साम्नां प्रतिपदमृचां धामयजुषां लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः। कदा दर्पक्षुभ्यत् कथककुलकोलाहलभवम् हरत्वन्तर्ध्वान्तम् हयवदनहेशाहलहलः। प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा वक्त्री वेदान् भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः। विशुद्धविज्ञानघनस्वरूपं विज्ञानविश्राणनबद्धदीक्षं दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये। अपौरुषेयैरपि वाक् प्रपञ्चैः अद्यापि ते भूतिमदृष्टपाराम् स्तुवन्नहं मुग्ध इति त्वयैव कारुण्यतो नाथकटाक्षणीयः। दाक्षिण्यरम्या गिरिशस्य मूर्तिः देवी सरोजासनधर्मपत्नी। व्यासादयोऽपि व्यपदेश्य वाचः स्फुरन्ति सर्वे तव शक्तिलेशैः। मन्दो भविष्यन्नियतं विरिञ्चः वाचां निधे वञ्चितभागधेयः। दैत्यापनीतान् दययैव भूयोऽपि अध्यापयिष्यो निगमान्न चेत्त्वम्। वितर्कडोलां व्यवधूय सत्त्वे बृहस्पतिं वर्तयसे यतस्त्वम्। तेनैव देवत् त्रिदशेश्वराणाम् अस्पृष्टडोलायितमाभिराज्यम् अग्नौ समित्थार्चिषि सप्ततन्तोः आतस्थिवान्मन्त्रमयं शरीरम् अखण्डसारैर्हविषां प्रदानैः आप्यायनं व्योमसदां विधत्से। यन्मूलमीदृक् प्रतिभाति तत्त्वं यामूलमाम्नाय महाद्रुमाणां तत्त्वेन जानन्ति विशुद्धसत्त्वाः त्वामक्षराम् अक्षरमातृकाम् ते अव्याकृताद्व्याकृतवानसि त्वम् नामानि रूपाणि च यानि पूर्वम् शंसन्ति तेषाम् चरमाम् प्रतिष्ठाम् वागीश्वर त्वाम् त्वदुपज्ञवाचः मुग्धेन्दुनिष्यन्द विलोभनीयाम् मूर्तिम् तवानन्दसुधा प्रसूतिम् विपश्चितश्चेतसि भावयन्तो वेलामुदारामिव दुग्धसिन्धोः मनोगतम् पश्यति यः सदा त्वाम् मनीषिणाम् मानसराजहंसम् स्वयम् पुरोभावविवादभाजः किम् कुर्वते तस्य गिरो यथार्हम् अपि क्षणार्थम् कलयन्ति ये त्वाम् आप्लावयन्तम् विशदैर्मयूखैः वाचाम् प्रवाहैरनिवारितैस्ते मन्दाकिनीम् मन्दयितुम् क्षमम् ते स्वामिन् भवध्यानसुधाभिषेकात् वहन्ति धन्या पुलकानुबन्धम् अलक्षिते क्वापि निरूढमूलम् अङ्गेष्विवानन्दधूमम् कुरन्तम् स्वामिन् प्रीति च हृदयेन धन्याः त्वध्यानचन्द्रोदयवर्धमानम् अमान्तमानन्दपयोधिमन्तः पयोभिरक्ष्णाम् परिवाहयन्ति स्वैरानुभावास्त्वदधीनभावाः समृद्धवीर्यास्त्वदनुग्रहेण विपश्चितो नाथ तरन्ति मायाम् वैहारिकीम् मोहनपिञ्चकान्ते प्राङ्निर्मितानाम् तपसाम् विपाकात् प्रत्यग्रनिःश्रेयससम्पदो मे समेधिशीरंस्तव पादपद्मे सङ्कल्पचिन्तामणयः प्रणामाः विलुप्तमूर्धन्यलिपिक्रमाणाम् सुरेन्द्रचूडापदलालितानाम् त्वदङ्घ्रिराजीवरजः कणानाम् भूयान्प्रसादो मयि नाथ भूयात् परिस्फुरन्नूपुरचित्रभानु प्रकाशनिर्धूततमोऽनुषङ्गाम् पदद्वयीन्ते परिचिन्महेन्तः प्रबोधराजीव विभातसन्ध्याम् त्वत्किङ्करालङ्करणोचितानाम् त्वयैव कल्पान्तरपालितानाम् मञ्जुप्रणादम् मणिनूपुरम् ते मञ्जूषिकाम् वेदगिराम् प्रतीमः सञ्चिन्तयामि प्रतिभादशास्थाम् सन्धुक्षयन्तम् समयप्रदीपान् विज्ञानकल्पद्रुमपल्लवाभम् व्याख्यानमुद्रामधुरम् करम् ते चित्ते करोमि स्फुरिताक्षमालम् सव्येतरम् नाधकरम् त्वदीयम् ज्ञानामृतोदञ्चनलालसानाम् लीलाघटीयन्त्रमिवाश्रितानाम् प्रबोधसिन्धोररुणैः प्रकाशैः प्रवालसङ्घातमिवोद्वहन्तम् विभावये देव सपुस्तकम् ते वामम् करम् दक्षिणमाश्रितानाम् तमांसि भित्त्वा विशदैर्मयूखैः सम्प्रीणयन्तम् विदुषश्च कोरान् निशामये त्वाम् नवपुण्डरीके शरद्घने चन्द्रमिव स्फुरन्तम् दिशन्तु मे देव सदा त्वदीयाः दयातरङ्गानुचराः कटाक्षाः श्रोत्रेषु पुंसाममृतम् क्षरन्तीम् सरस्वतीम् संश्रितकामधेनुम् विशेषवित्पारिषदेषु नाथ विदग्धगोष्ठीसमराङ्गणेषु जिगीषतो मे कवितार्किकेन्द्राम् जिह्वाग्रसिंहासनमभ्युपेयाः त्वाम् चिन्तयन् त्वन्मयताम् प्रपन्नः त्वामुद्गृणन् शब्दमयेन धाम्ना स्वामिन् समाजेषु समेधिशीय स्वच्छन्दवादाः बद्धशूरः नानाविधानामगतिः कलानाम् न चापि तीर्थेषु कृतावतारः ध्रुवम् तवानाथपरिग्रहायाः नवन्नवम् पात्रमिदम् दयायाः अकम्पनीयान्यपनीतिभेदैः अलङ्कृशीरम् हृदयम् मदीयम् शङ्काकलङ्कापगमोज्ज्वलानि तत्त्वानि संयञ्चि तव प्रसादात् व्याख्यामुद्राम् करसरसिजैः पुस्तकम् शङ्खचक्रे बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः अम्लानश्रीरमृतविशदैः अंशुभिप्लावयन्माम् आविर्भूयादनघमहिमा मानसे वागधीशः व्याख्यामुद्राम् करसरसिजैः पुस्तकम् शङ्खचक्रे बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः अम्लानश्रीरमृतविशदैः अंशुभिप्लावयन्माम् आविर्भूयादनगमहिमा मानसेवागधीशः वागर्धसिद्धिहेतोः पठत हयग्रीवसंस्तुतिं भक्त्या कवितात्तिककेसरिणा वेङ्कटनाथेन विरचितामेताम् कवितात्तिकसिंहाय कल्याणगुणशालिने श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः। ॐ अस्मद्गुरुभ्यो नमः।